अथ द्वादशः सर्गः। अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् क्लान्तिरहितमभिराधयितुम् विधिवत्तपांसि विदधे धनञ्जयः। अथेति अथ इन्द्रतिरोधानानन्तरम् रुचिरवदनः इन्द्रसाक्षात्कारसन्तोषात् प्रसन्नमुखः धनञ्जयः अर्जुनः वासवस्य वचनेन उपदेशेन त्रिलोचनं शिवं क्लान्तिरहितं यथा तथा अभिराधयितुं प्रसादयितुं तपांसि विधिवत् विध्यर्हं यथाशास्त्रमित्यर्थः। तदर्हम् इति वतिप्रत्ययः। विदधे चक्रे अस्मिन् सर्गे उद्गतावृत्तम् सजमादिमे स लघुकौ च न स जगुरुकैरथोद्गता अङ्घ्रिगतभनजला गजुता सजसा जगौ चरणमेकतः पठेत् इति लक्षणात्। अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणम् निषीदतः। अभिरश्मीति अभिरश्मिमालि अभिसूर्यम् सूर्याभिमुखम् भुवि एकचरणम् निषीदतः एकचरणेन तिष्ठतः विमलस्य बाह्यान्तरशुद्धिमतः। धृता जयद्धृतिः जयेच्छा येन तस्य अनाशुषः अनश्नतः। उपेयिवाननश्वाननूचानश्च इति निपातः। तस्य अर्जुनस्य बहूनां पूरणाः बहुतिथाः बहुसङ्ख्याकाः इत्यर्थः। तस्य पूरणे डट् बहुपूगगणसङ्घस्य तिथुक् इति तिथुगागमः। तिथयः दिनानि प्रतिजग्मुः अथ तिथिशब्दः पुंलिङ्गः। तदाद्यास्तिथयो द्वयोः इत्यभिधानात् अन्यथा बहुतिथाः इत्यत्र टित्वात् ङीप् स्यात्। वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः व्यापनगपतिरिव स्थिरताम् महताम् हि धैर्यमविभाव्य वैभवम्। वपुरिति पाण्डवः अर्जुनः सततम् वपुषः इन्द्रियाणाञ्च उपतपनेषु सन्तापकरेषु करणे ल्युट् असुखेषु अनशनादिदुःखेष्वपि नगपतिः गिरीन्द्रः इव स्थिरताम् दार्ढ्यम् व्याप प्राप तथा हि महताम् धैर्यम् अविभाव्यम् दुर्बोधम् वैभवम् सामर्थ्यम् यस्य तत्तथोक्तम् धीराणाम् अकिञ्चित्करम् दुःखमिति भावः। न पपात सन्निहितपक्तिसुरभिषु फलेषु मानसम् तस्य शुचिनि शिशिरे च पयस्य मृतायते हि सुतपः सुकर्मणाम्। नेति तस्य अर्जुनस्य मानसम् मनः सन्निहितानि समीपस्थानि यानि पक्तिसुरभीणि पाकसुगन्धीनि तेषु फलेषु तथा शुचिनि स्वच्छे शिशिरे शीतले पयसि च न पपात न किञ्चित् आचकाङ्क्षेति भावः। प्राणधारणं तु तस्य तप एवेत्याह। तथा हि सुकर्मणां सुकृतिनां शोभनं तपः सुतपः एव अमृतायते अमृतवदाचरति। किं तपस्तृप्तानां तर्पणान्तरैः इति भावः। लोहितादिडाज्भ्यः क्यश् वाक्यशः इत्यात्मने पदम् लोहितादिहि आकृतिगणः न विसिस्मिये न विशसाद मुहुरलसताम् न चाददे सत्त्वमुरुद्धृति रजस्तमसी न हतस्म तस्य हतशक्तिपेलवे सः अर्जुनः न विसिस्मिये अहो महत्तपस्तप्तमिति न विस्मयं जगाम तपः क्षरति विस्मयात् इति स्मृतेरिति भावः न विशसाद फलविलम्बात् गतोत्साहः न बभूव विषादश्चेतसो भङ्गः इति लक्षणात् सदिरप्रतेहेति षत्वम् मुहुरलसताम् तपसि मन्दोद्यमत्वञ्च नाददे नागमत् किञ्च हतशक्तिनी हतसारे अत एव पेलवे भङ्गुरे ते हतशक्तिपेलवे रजस्तमसी गुणौ उरुधृति महासारम् तस्य अर्जुनस्य सत्त्वम् सत्त्वगुणम् न हतस्म न हतवती हन्तेः लट्स्मे इति भूतार्थे लट् तपसा कृशं वपुरुवाह स विजित जगत्त्रयोदयम् त्रासजननमपि तत्त्वविदाम् किमिवास्ति यन्न सुकरं मनस्विभिः तपसेति सः अर्जुनः तपसा कृशं तथापि विजितः जगत्त्रयस्य भुवनत्रयस्य उदयः उत्कर्षः येन तत्तथोक्तम् किञ्च तत्त्वविदामपि लोकहितार्थतत्त्वम् जानतामपि त्रासजननम् भयङ्करम् वपुः उवाह वहति स्म न च एतच्चित्रमित्याह किमिति यत् मनस्विभिः न सुकरम् तत्किमिवास्ति न किमपीत्यर्थः इव शब्दः वाक्यालङ्कारे मनस्विनाम् इति पाठे शेषे षष्ठी स्यादेव कृद्योगलक्षणायाः न लोक इत्यादिना निषेधात् ज्वलतो नलादनुनिशीथमधिकरुचिरम्भसाम् निधेः धैर्यगुणमवजयन् विजयी ददृशे समुन्नततरः सशैलतः ज्वलत इति विजयी सः अर्जुनः अनुनिशीथम् अर्धरात्रे विभक्त्यर्थे अव्ययीभावः अर्धरात्रनिशीथौ द्वौ इत्यमरः ज्वलतः दीप्यमानात् अनलात् अग्नेः अधिकरुचिः दीप्यमानः तथा अम्भसाम् निधेः धैर्यम् गाम्भीर्यम् तदेव गुणः तम् अवजयन् किञ्च शैलतः शैलादपि समुन्नततरः ददृशे दृष्टः अत्र रुच्यादिभिः अनलाद्याधिक्यासम्बन्धे सम्बन्धाभिधानात् अतिशयोक्तिरलङ्कारः जपतः सदा जपमुपांशु वदनमभितो विसारिभिः तस्य दशनकिरणैः शुशुभे परिवेशभीषणमिवर्कमण्डलम् जपत इति सदा उपांशु रहः गूढमित्यर्थः रहश्चोपांशुचालिङ्गे इत्यमरः करणवदनशब्दमनुप्रयोग उपांशु इति कौमारलक्षणम् जप्यते इति जपः तम् जपम् मन्त्रमित्यर्थः जपतः पठतः तस्य अर्जुनस्य वदनम् कर्तृ अभितः विसारिभिः प्रसरणशीलैः दशनकिरणैः हेतुभिः परिवेशभीषणम् अर्कमण्डलमिव शुशुभे परिवेशस्तु परिधिः उपसूर्यकमण्डले इत्यमरः कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः शैलपतिरिव महेन्द्रधनुः परिवीतभीमगहनो विदिद्युते कवचमिति कवचं वर्म बिभ्रत् उपवीतपदे यज्ञोपवीतस्थाने निहितं आरोपितं सज्यं कार्मुकं येन सह तथोक्तः सः अर्जुनः महेन्द्रधनुषा परिवीतं परिवेष्टितं भीमं गहनं वनं यस्य सः शैलपतिरिव हिमवानिव विदिद्युते शुशुभे प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणाः न संहतिः प्रविवेशेति नियमसवनाय नियमस्नानाय कृशस्य तपःकर्षितस्य तथा सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च इति विश्वः गच्छतः तस्य अर्जुनस्य पदैः पादन्यासैः विनमितः हिमवान् गां भुवं प्रविवेशेवेति उत्प्रेक्षा ननु कृशस्य कथमियद्गौरवं तत्र आह गुणाः सारादयः गुरुतां नयन्ति प्रापयन्ति हि संहतिः सङ्घातः मूर्तिरिति यावत् न नयन्ति अन्तःसाराद्धि गौरवं भवति न तु बाह्यात् स्थौल्यात् तत्र च हेमपिण्डतूलपिण्डावेव निदर्शनमिति भावः परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् ज्योतिरुपरि शिरसो विततम् जगृहे निजान्मुनिदिवौकसाम् पथः परिकीर्णमिति उद्यतभुजस्य ऊर्ध्वबाहोः तस्य शिरसः उपरि षष्ठ्यतसर्थप्रत्ययेन इति षष्ठी विततम् विस्तृतम् भुवनयोः विवरे द्यावापृथिव्योः अन्तराले परिकीर्णं व्याप्तं दुरासदं दुर्धर्षं ज्योतिः तेजः मुनीनां दिवौकसां च निजान् नियतान् पथः मार्गान् जगृहे जग्राह प्रतिबबन्ध इत्यर्थः रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः भिन्नतिमिरनिकरं न जहे शशिरश्मिसङ्गमयुजा नभश्रिया रजनीष्विति बहुलसमये कृष्णपक्षेऽपि रजनीषु रात्रिषु राजतनयस्य अर्जुनस्य धामभिः तेजोभिः भिन्नः तिमिरनिकरः यस्य तन्नभः शशिरश्मीनां सङ्गमेन हेतुना युजा सङ्गतया श्रिया तच्छ्रीतुल्यया श्रिया इत्यर्थः अत एव निदर्शनालङ्कारः न जहे न त्यक्तं जहातेः कर्मणि लिट् ज्योत्स्नातुल्यं ज्योतिर्जातमित्यर्थः महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना ह्रीतमिव नभसि वीतमले न विराजते स्म वपुरं सुमालिनः महतेति जिष्णोः अर्जुनात् जन्म यस्य तेन जन्मोत्तरपदत्वात् व्यधिकरणो बहुव्रीहिः महता मयूखनिचयेन बहुकिरणसमूहेन शमितरुचि हतप्रभं अंशुमालिनः वपुः अर्कबिम्बं ह्रीतं जितत्वात् लज्जितमिवेति उत्प्रेक्षा वीतमले विमले मेघनीहारादि आवरणरहितेऽपि इत्यर्थः नभसि न विराजते स्म तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः रुद्रमनुदितललाटदृशं ददृशुः मिमन्ति सुमिवासुरीः पुरीः तमिति उदीरिताः उद्गताः अरुणाः जटानाम् अंशवः यस्य तम् अधिगुणम् अधिज्यम् शरासनम् यस्य तम् अर्जुनम् जनाः सिद्धगणाः आसुरीः असुरसम्बन्धिनीः पुरीः मिमन्थिषुम् मथितुमिच्छुम् मथेः सन्नन्तात् उप्रत्ययः तथा अनुदिता अनुत्पन्ना ललाटे दृक् यस्य तम् साक्षात् त्रिपुरविजयोद्यतम् अभालाक्षं रुद्रमिव ददृशुः अत्र अभालाक्षस्य रुद्रस्य असम्भवात् स्वतःसिद्धोपमानासिद्धेः नेयम् उपमा किन्तु उत्प्रेक्षा सा च अभालाक्षमिति उपमानात् उपमेयस्य न्यूनत्वकथनार्थे अन्वयव्यतिरेकेण उज्जीवितेति अनयोः अङ्गाङ्गिभावेन सङ्करः उपमा तु व्यज्यते इति अलङ्कारेण अलङ्कारध्वनिः मरुतां पतिस्विदहिमांशुरुत पृथुशिखः शिखीतपः तत्तुमसुकरमुपक्रमतेन जनोऽयमित्यवयये स तापसैः मरुतामिति मरुतां पतिस्वित् देवेन्द्रो वा अहिमांशुः उत सूर्यो वा पृथुशिखः महाज्वालः शिखी पावको वा असुकरं दुष्करं तपः तप्तुम् उपक्रमते अयं जनः पुरुषः कश्चित् प्राकृतो नेति सः अर्जुनः तापसैः तपस्विभिः अञ्च इति मत्वर्थीयः अण्प्रत्ययः अवयये अवगतः यातेः अवपूर्वात् कर्मणि लिट् अत्र इन्द्रत्वादिकम् आरोप्य जनत्वापवादात् साम्यम् आरोप्य अपह्नवालङ्कारः सामान्यलक्षणं तु निषिद्धविषये साम्यारोपो ह्यपह्नवः इति